लक्ष्मीमन्तं समूर्त्यन्तं देवासुरनमस्कृतं पूजयस्य विवस्वन्तं भास्करं भुवनेश्वरं सर्वदेवात्मको येष तेजस्वी रश्मिभावनः एष देवासुरगणान् लोकान् पातु गभस्तिभिः एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पति पितरो वसवः
कृत्वा महातेजः नष्ट शोको भवत् तदा धारयामास सुप्रीतो राघवः प्रयतात्मवान् आदित्यं प्रेक्ष्य जप्त्वा तु परम हर्षमवाप्तवान् त्रिराजम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् सर्वयज्ञेन महता वधे तस्य धृतोऽभवत् अथ रविर्वदन् निरीक्ष्य रामं मुदितमनः परमं प्ररिष्यमाणः निश्चरपति संक्षयं विदित्वा सुरगण मध्य गतो वचस्वरेति
इति श्री वाल्मीकि रामायणे अगस्त्यप्रीत्या।